इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य धन्वन्तरी जयन्त्यवसरे तथा नवमे आयुर्वेद दिवसस्यावसरे नवदिल्ल्यां प्रायः सार्ध अष्टशतोत्तर द्वादशसहस्रकोटिरूप्यकाणां स्वास्थ्यक्षेत्रसम्बद्धानां बहुविधपरियोजनानाम् उद्घाटनं आधारशिलां स्थापनं च करिष्यति। प्रधानमन्त्री आयुष्मान् भारत प्रधानमन्त्री जन आरोग्य योजनायां प्रमुखपरियोजनारूपेण सप्ततिः वर्षतोप्यधिक आयुवर्गाणां सर्वेषां वरिष्ठनागरिकाणां स्वास्थ्यसेवायाः विस्तारं करिष्यति। स्वास्थ्यसेवामूलसंरचनायाः प्रमुखप्रवर्धनरूपेण श्रीमोदी बहुविधस्वास्थ्यसेवासंस्थानानाम् उद्घाटनं करिष्यति, आधारशिलां च स्थापयिष्यति। सः भारतस्य प्रथमस्य अखिलभारतीय आयुर्वेदसंस्थानस्य द्वितीयचरणस्य उद्घाटनं करिष्यति, यस्मिन् पञ्चकर्मचिकित्सालयः, औषधिनिर्माणार्थम् आयुर्वेदिक औषधालयः, एकं क्रीडाचिकित्सा एकांशं, केन्द्रीयपुस्तकालयः, सूचनाप्रौद्योगिकी स्टार्टअप इन्क्यूबेशन केन्द्रं, पञ्चशतम् आसनानां च सभागारं चास्ति। मध्यप्रदेशस्य मन्दसौर नीमच सियोनी मण्डलेषु त्रयाणां चिकित्सामहाविद्यालयानाम् अपि उद्घाटनं करिष्यति। एतदतिरिच्य हिमाचलप्रदेशस्य बिलासपुरे, पश्चिमबङ्गस्य कल्याणी इत्यत्र, बिहारस्य पटनायाम्, उत्तरप्रदेशस्य गोरखपुरे, मध्यप्रदेशस्य भोपाले, असमस्य गुवाहाट्यां, नवदिल्ल्यां च विभिन्नेषु एम्स चिकित्सालयेषु सौविध्यसेवाविस्तारस्य च उद्घाटनं करिष्यति, येषु जनऔषधिकेन्द्रम् अपि सम्मिलितोऽस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यश्रव्यपरान्तर्जालीयमाध्यमेन नवनियुक्तेभ्यः युवभ्यः एकपञ्चाशत्सहस्राधिकं नियुक्तिपत्राणि वितरिष्यति। वृत्तिपरम् इदं मेलकं देशस्य चत्वारिंशत् स्थानेषु आयोजयिष्यते। नियुक्तिपत्रप्राप्ताः युवानः विविधेषु मन्त्रालयेषु विभागेषु च कार्यरताः भविष्यन्ति। वृत्त्यवसरप्रदातृमेलकमिदं प्रधानमन्त्रिणः कृतप्रतिबद्धताम् अपि दर्शयति। नवनियुक्ताः एते युवानः आईगॉट कर्मयोगी अन्तर्जालपटले उपलब्धस्य आन्तर्जालिकप्रारूपस्य कर्मयोगी प्रारम्भ इत्याख्यस्य साहाय्येन आधारभूतप्रशिक्षणस्य अवसरान् प्राप्स्यन्ति। महाराष्ट्रे एकचरणीयमतदानस्य कृते, झारखण्डे च द्वितीयचरणस्य कृते नामाङ्कनपत्राणां प्रपूरणप्रक्रिया अद्य सायम् अवसीयते। महाराष्ट्रस्य 88,200 विधानसभासनेभ्यः, झारखण्डस्य च 38 आसनेभ्यः नवम्बरमासस्य 20 दिनाङ्के मतदानं भविष्यति। मतगणना 23 दिनाङ्के च भविष्यति। प्रधानमन्त्री श्रीमोदी ह्यः गुजरातस्य अमरेलीस्थाने 900,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000, असौ अवोचत् यत् देशे जीवन्तं रक्षा उद्योग निर्माणं प्रति तस्य प्रशासनेन अनेके पदाक्षेपाः उत्थाप्यन्ते। खाद्य पदार्थ चलचित्र पादकन्दुक इत्येतेषां माध्यमेन भारत स्पेन देशयोः जनानां प्रबल सम्बन्धान् आधृत्य उभौ देशौ 26,000 वर्षस्य सांस्कृतिक पर्यटन कृत्रिम मेधानां वर्षत्वेन अपानयितुं निर्णय निर्णीतवन्तौ इति वार्ताः।